संप्राप्तो मधुरां दिनार्धविगमे तत्रांतरस्मिन् वसन् आरामे विहिताशनः सखिजनैः यातः पुरी वीक्षितुं प्रापो राजपथं चिरश्रुतिधृतव्यालोक कौतूहलस्त्रीपुंसोऽद्यदगण्य पुण्यनिगळैः आकृष्यमाणो नु किं त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितः सम्प्राप्ताः विलसत्पयोधररुचः लोलाः भवद्दृष्टिवत् हारिण्यः तुदुरस्थलीवत् अयि ते मन्दस्मितप्रौढिवत् नैर्मल्योल्लसिताः कचौघरुचिवत् राजत्कलापाश्रिताः तासाम् आकलयन् अपाङ्गवलनैर्मोदं प्रहर्षाद्भुतव्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिं भूयो वायकम् एकम् आयतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनां मालाभिः स्तबकैः स्तवैरपि पुनः मालाकृतामानितः भक्तिं तेन वृतां दिदेशिथपरां लक्ष्मीञ्च लक्ष्मीपते कुब्जाम् अब्जविलोचनां पथि पुनः दृष्ट्वाङ्गरागेतया दत्ते साधु किल अङ्गरागमददाः तस्याः महान्तं हृदि चित्तस्थां ऋजुताम् अथ प्रथयितुं गात्रेऽपि तस्या स्फुटं गृह्णन् मञ्जुकरेण ताम् उदनयः तावज्जगत्सुन्दरीं तावन्निश्चितवैभवाः तव विभो नात्यन्तपापाजनाः यत्किञ्चित् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकं गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिः नातिष्ठम्बतः यतोऽद्य विपुलाम् आर्तिं व्रजामि प्रभो येष्यामीति विमुक्तयापि भगवन् आलेपदात्र्यातया दूरात्कातरया निरीक्षितगतिः त्वं प्राविशो गोपुरम् आघोषानुमितत्वदागम महाहर्षोल्लसद्देवकी वक्षोजप्रगळत्पयोरसमिषात् त्वत्कीर्तिः अन्तर्गता आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् माधुर्येण नु तेजसानुपुरुषैः दूरेण दत्तान्तरः स्रग्भिर्भूषितम् अर्चितं वरधनुः मामेति वादात्पुरः प्रागृह्णाः समरोपयः किल समाक्राक्षीः अभाङ्क्षीरपि श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपमः चापध्वंसमहाध्वनिः तव विभो देवान् अरोमाञ्चयत् कंसस्यापि च वेपथुः तदुदितः कोदण्डखण्डद्वयी चण्डाभ्याहत रक्षिपूरुषरवैः उत्कूलितो भूत्वया शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः सम्पश्यन् पुरसम्पदं प्रविचरन् सायं गतो वाटिकां श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वपन् आनन्दन् अवतारकार्यघटनात् वातेषा संरक्षमाम् ॐ तत्सदिति श्रीमन्नारायणीये चतुःसप्ततितमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।